सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमाशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमीतटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विन्शयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमाशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमीतटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विन्शयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमाशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमीतटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विन्शयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमीतटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विंशयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमीतटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विंशयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमीतटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विंशयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमीतटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विंशयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमी तटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विंशयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमी तटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विंशयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमी तटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्त जनं कृतं पापं स्मरेण विंशयति सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं उज्जयिन्यां महाकाल ओंकारं ममलेश्वरं परल्यां वैद्यनाथं च डाकियन्यां भीमशंकरं सेतु बंदे तु रामेशं नागेशं दारुकावने वाराणस्यां तु विश्वेशं त्रयंबकं गौतमीतटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायः प्रातः पठेन्नरः सप्तजनं कृतं पापं स्मरेण विन्शयति।
सावन के इस पावन महीने में भगवान शिव की पूजा लिंग स्वरूप में अति फलदायी मानी जाती है। कहा जाता है कि द्वादश ज्योतिर्लिंग का नियमित रूप से पाठ करने वाले मनुष्य को शिवलोक में एक विशेष स्थान की प्राप्ति होती है। तो प्रेम से बोलिए ओम नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय।